प्रणानाम् त्वा
गणपतिगुं हवामहे कविं कवीनामुपमस्रवस्तमाम् ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आन शृण्वन्नोति विस्सेदसादनम् प्रणो देवे सरस्वती वाजिनीवते धीरावित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इचवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् भगवते धनुः शिवाशरव्या यात भतया नो रुद्रमृडया याते रुद्र शिवा तनुरघोरा पापकाशिनी तयानस्तनु वाचन्तमया गिरिशन्ता विचाकशीः यामि शृङ्गिरिशन्तहस्ते विभर्ष्यस्तवे शिवां गिरिव्रताम् कुरु माहि पुंसि पुरुषम् जगत् शिवे नवचसा त्वा गिरिशाच्चावदामसि यथा नः सर्वमिज्जगदयक्ष्मगुम् सुमना असत् अद्यवोचदति भक्ता प्रथमो दैव्यो भृशक अहीकुश्च सर्वा जम्बयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रस्सु मङ्गलः ये क्षेमागुम् रुद्रा अवितो दिक्षुश्रिता सहस्रशो वैशागुम् हेडयीमहे असौ यो वसर्पतिनीलग्रीवो विलोहितः उदैनम् गोपा अदृशन्नदृशन्नुदहार्यः उदैनम् विश्वा भूतानि सदृष्टो मृडयादिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अधो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्चदन्वनस्त्वमुभयोरात्मियोर्ध्याम् यास्य देहस्थ इषवः पराता भगवो वपा अवदत्यदनुस्त्वगुम् सहस्राक्षशते सुधे निषेर्यशल्याणामुखा शिवो न सुमना भवा विज्यम् धनुःकपर्दिनो विशल्योपानवागुम् हुता अनेशन्नस्येषव आभुरस्य निषङ्गतिः या ते हेतिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायाना तताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अधो य इषु दिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यंबकाय त्रिपुरांधकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकंठाय मृत्युंजयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः। नमो हिरण्यबाहवे सेनान्ये दिशाञ्च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः। सस्पिञ्जराय त्रिशीमते पदीनां पतये नमो नमो। बब्लुषाय विद्याधिने नानां पतये नमो नमो। हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो। भवस्य हेत्यै जगतां पतये नमो नमो। रुद्रायातकाविने क्षेत्राणां पतये नमो नमः। सूताय हन्त्याय वनानां पतये नमो नमो। रोहिताय सपतये वृक्षाणां पतये नमो नमो। मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो। भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नम। उच्चैर्घोषाय क्रन्दयते पत्तीनां पतये नमो नम। कृष्णवेदाय धावते सत्त्वनां पतये नमः। नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नमः। ककुभाय निषङ्गिणे सेनानां पतये नमो नमो। निषङ्गिन इषुधिमते तस्कराणां पतये नमो नमो। वञ्चते परिवञ्चते स्थायूनां पतये नमो नमो। निजेरवे परिचरायारण्यानां पतये नमो नमः। शृगाविभ्यो जिगागुंसद्भ्यो मुष्णतां पतये नमो नमो। श्रीमद्भ्यो नक्तं चरद्भ्यः प्रकृन्तानां पतये नमो नम। उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम। किषुमध्योधन्वाविभ्यश्च वो नमो नम। आदन्वानेभ्यः प्रदिदधानेभ्यश्च वो नमो नम। आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमो। स्यभ्यो विद्यद्भ्यश्च वो नमो नम। आसीनेभ्यश्चयानेभ्यश्च वो नमो नम। स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नम। सृष्टद्भ्यो दावद्भ्यश्च वो नमो नम। सभाभ्य सभापतिभ्यश्च वो नमो नमो। अश्वेभ्यो अश्वपतिभ्यश्च वो नमः। नम आव्याधिनीभ्यो विविद्यन्तेभ्यश्च वो नमो नम। उगणाभ्य स्त्रिगुंहतेभ्यश्च वो नमो नमो। गृत्सेभ्यो गृत्सभदिभ्यश्च वो नमो नमो। व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो। गणेभ्यो गणपतिभ्यश्च वो नमो नमो। विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो। महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो। रतिभ्यो रथेभ्यश्च वो नमो नमो। रथेभ्यो रथपतिभ्यश्च वो नमो नमः। सेनाभ्य सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमः तक्षद्योरथकारेभ्यश्च वो नमो नमः कुलालेभ्य कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नमः शुक्रेभ्यो दन्भकृभ्यश्च वो नमो नमो मृगयुभ्यस्वनिभ्यश्च वो नमो नमः स्वभ्यस्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिभिष्टाय च नमो मीदुष्टमाय च सुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे च जिनाय च नमः शीघ्रियाय च शीभ्याय च नमः ऊर्म्याय च वस्वन्याय च नमः स्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च वगल्भाय च नमो जघन्याय च बुद्धेयाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च घल्याय च नमः श्लोक्याय च वसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय च आशुरधाय च नमः शूराय च वबिन्दते च नमो वर्मिणे च वरूधिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेषु धिमते च नमः तीक्ष्णे शवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः कार्त्याय च नीत्याय च नमः सूर्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः ईन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुवाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयो भवे च नमः
ശങ്കരായ ച മയസ്കരായ ച നമഃ ശിവായ ച ശിവതരായ ച നമസ്തീർത്ഥായ ച കൂല്യായ ച നമഃ പാര്യായ ച വാര്യായ ച നമഃ പ്രതരണായ ചോത്തരണായ ച നമഃ ആതാര്യായ ച നാദ്യായ ച നമഃ ശശ്വ്യായ ച ഭേന്യായ ച നമഃ സികത്യായ ച പ്രവാഹ്യായ ച നമഗിരിണ്യായ ച പ്രപത്യായ ച നമഃ കിഗുംശിലായ ച ശയനായ ച നമഃ കപർദിനേ ച പുലസ്തയേ ച നമോ ഗോഷ്ട്യായ ച ഗൃഹ്യായ ച നമഃ സൽപ്യായ ച ഗേഹ്യായ ച നമഃ കാട്യായ ച കപ്വരേഷ്ടായ ച നമോ ഹൃദയ്യായ ച നിവേശ്യായ ച നമഃ പാഗുംസവ്യായ ച രജസ്യായ ച നമഃ ശുഷ്ക്യായ ച ഹരിത്യായ ച നമോ ലോപ്യായ ചോലപ്യായ ച നമഃ ഊർപ്യായ ച സൂര്യായ ച നമഃ പർണ്യായ ച പർണശദ്യായ ച നമോ ബഗുരമാണായ ച വിജ്ഞതേ ച നമഃ ആഖിദതേ ച പ്രഖിദതേ ച നമോ വക്കിരികേഭ്യോ ദേവാനാകം ഹൃദയേഭ്യോ നമോ വിക്ഷീണകേഭ്യോ നമോ വിചിന്വക്കേഭ്യോ നമഃ ആനിർഹതേഭ്യോ നമഃ ആമീവക്കേഭ്യഃ ദ്രാപേ അന്ധസസ്പദേ ദരിദ്രന്നീലലോഹിത പുരുഷാണാം പശൂനാം മാഭേർമാരോമോഹേഷാം കിഞ്ചനാമമത് യാതേ രുദ്ര ശിവാ തനൂ ശിവാ വിശ്വാഹ ഭേഷജേ ശിവാ രുദ്രസ്യ ഭേഷജേ തയാ നോ മൃഡജീവസേ ഇമാകും രുദ്രായ തവസേ കപർദിനേ ശയദ്വീരായ പ്രവരാമഹേ മതിം യഥാ നശ്യമസദ്വിപദേ ചതുഷ്പദേ വിശ്വം പുഷ്ടം ഗ്രാമേ അസ്മിന്നനാതുരം മൃഡാനോ രുദ്രോതനോ മയസ്കൃതി ശയദ്വീരായ നമസാ വിധേമതേ യജ്ഞം ചയോശ്ചമനുരായ ജേ പിതാ ദദശ്യാമതവ രുദ്ര പ്രണീതോ മാനോ മഹാന്തമുതമാനോ അർഭകം മാന ഉക്ഷന്തമുതമാന ഉക്ഷിതം മാനോ വധേ പിതരം മോത മാതരം പ്രിയമാനസ്തനുവോ രുദ്രരീരിഷഃ മാനസ്തോകേതനയേ മാന ആയുഷി മാനോ ഗോഷു മാനോ അശ്വേഷു രീരിഷഃ വീരാന്മാനോ രുദ്രപാമിതോ വധേ അവിഷ്മന്തോ നമസാ വിധേമതേ ആരാതേ ഗോദ്ധമുത പൂരുഷഗ്നേ ശയദ്വീരായ സും നമസ്മേതേ അസ്തു രക്ഷാചനോ അതിജദേവ ബ്രൂഹ്യതാചന ശർമയച്ച ദ്വിവർഹാഃ സുഹിശ്രുതം ഗർത്ത സദയ്യുവാനം മൃഗർണ ഭീമമുപഹദ്രുമുഗ്രം മൃഡാചരിത്രേ രുദ്രസ്തവാനോ അന്യന്തേ അസ്മന്നിവ പന്തുസേനാഃ പരിണോ രുദ്രസ്യ ഹേതിർവൃണക്തു പരിദ്വേഷസ്യ ദുർമതിരഘായോഃ അവസ്ഥിരാ ഭഗവദ്യസ്തനുഷ്വമീത്വസ്തോകായ തനയായ മൃഡയാ മീരുഷ്ടമ ശിവതമ ശിവോ ന സുമനാ ഭവാ പരമേ വൃക്ഷ ആയുധന്നിതായ കൃത്യം വദാ നാചര വിനാകം ബിഭ്രദാ ഗഹേ విగిరిద విలోభిత నమస్తే అస్తు భగవః యాస్తే సహస్రగుం హేతయోన్యమస్మన్నివ పంతు తాః సహస్రాణి సహస్రతా బాహువోస్తవ హేతయః తాశామీశానో భగవః పరాచీనా ముఖాకృతే సహస్రాణి సహస్రజో యే రుద్రా అధిభూమ్యా తేషాగుం సహస్రయోజనే వదన్వాని తన్మసే అస్మిన్ మహత్యర్ణవేందరిక్షే భవా అధే నీలగ్రీవాశితికంఠా శర్వా అధః క్షమాజరా నీలగ్రీవాశితికంఠాదివగుం రుద్ర ఉపశ్రితాః యే వృక్షేషు సస్పింజరా నీలగ్రీవా విలోహితాః యే భూతానామధిపతయో విశికాసః కపర్దినః యే అన్నేషు వివిద్యంతి పాత్రేషు విపదో జనాన యే పథాంబిరక్షయ ఐలమృదాయ్యుదః యే తీర్థాని ప్రచరంతి శృగావంతో నిషంగిణః యేతావంతశ్చ భూయాగుంసశ్చ దిశో రుద్రావితస్థిరే తేషాగుం సహస్రయోజనే వదన్వాని తన్మసే నమో రుద్రేభ్యో యే పృథివ్యాంగేంతరిక్షే యే దివ్యేషా మన్నం వాతో వరుషమిషవస్తేభ్యో దశ ప్రాచీర్దశ దక్షిణా దశ ప్రతిచీర్దశోదీచీర్దశోర్ధ్వాస్తేభ్యో నమస్తే నో మృళయంతు దేయం దిష్మో యశ్చ నో ద్వేష్ఠిరం భోజం దామి త్ర్యంబకం యజామహే సుగంధిం వృష్టివర్ధనం ఉర్వారుకమివ బంధనాన్ మృత్యోర్ముక్షీయమామృతాత్. యో రుద్రో అగ్నౌ యో అప్సుయ ఔషధీషు యో రుద్రో విశ్వా భువనా వివేశ తస్మై రుద్రాయ నమో అస్తు. ఏతే సహస్రమయుతం పాశా మృత్యోర్మృత్యాయ హంతవే తాన్యజ్ఞస్య మాయయా సర్వానవయజామహే. మృత్యవే స్వాహా మృత్యవే స్వాహా ప్రాణానాం గ్రంథిరసి రుద్రో మా విశాంతకః విష్ణవే. మృత్యుర్మే పాహే తముష్టు భియస్సు ధన్వాయో విశ్వస్య క్షయతి భేషజస్య యక్ష్వా మహేశౌ మనసాయ రుద్రం నమో విర్దేవమసురం దువస్య. అయం మే హస్తో భగవాన్ అయం మే భగవత్తరః అయం మే విశ్వభేషజోయగుం శివాభిమర్షణః. ఓం శాంతి శాంతి శాంతిః. ఓం సంచ మే మయశ్చ మే ప్రియం చ మేణు కామశ్చ మే కామశ్చ మే సౌమనసశ్చ మే భద్రం చ మే శ్రేయశ్చ మే వశ్యశ్చ మే యశశ్చ మే భగశ్చ మే ద్రవిణం చ మే యంతా చ మే ధర్తా చ మే క్షేమశ్చ మే ధృతిశ్చ మే విశ్వం చ మే మహశ్చ మే సంనిశ్చ మే జ్ఞాత్రం చ మే స్ प्रसूश्च मे प्रसूश्च मे तीरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे दीवादुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे तोषा च मे सुदिनं च मे ॐ शान्ति शान्ति शान्तिः ॐ शन्नो मित्रस्यं वरुणः शन्नो भवत्वर्यमा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवतु अवतु माम् अवतु वक्तारम् ॐ शान्ति शान्ति शान्तिः शिक्षां व्याख्यास्यामः वर्णस्वरः सन्तानः इत्युक्तशेषाध्यायः सह नौ यशः सह नौ ब्रह्म वर्चसम् अथातः सगुंहिताय उपनिषदं व्याख्यास्यामः पञ्चस्वधिकरणेषु अधिलोकमधिज्योतिषमधिविद्यमधिप्रजमध्यात्मम् तामहासगुंहिता इत्याचक्षते अथाधिलोकम् पृथिवीपूर्वरूपम् द्यौरुत्तररूपम् आकाशसन्धिः वायुसन्धानम् इत्यधिलोकम् अथादिज्योतिषम् अग्निपूर्वरूपम् आदित्य उत्तररूपम् आपस्सन्धिः वैद्युतसन्धानम् इत्यधिज्योतिषम् अथादिविद्यम् आचार्यपूर्वरूपम् अन्तेवास्युत्तररूपम् विद्यासन्धिः प्रवचनपुंसन्धानम् इत्यधिविद्यम् अथाधिप्रजम् मातापूर्वरूपम् पितोत्तररूपम् प्रजासन्धिः प्रजननपुंसन्धानम् इत्यधिप्रजम् अथाध्यात्मम् अधराहणुः पूर्वरूपम् उत्तराहणुरुत्तररूपम् वात्सन्धिः जिह्वासन्धानम् इत्यध्यात्मम् इति मा महासगुंहिताः य एवमेता महासगुंहिता व्याख्याता वेदा सन्धीयते प्रजया पशुभिः ब्रह्मवच्चवेदान्नाद्येन सुवर्गेण लोकेन यश्चन्दसा मृषभो विश्वरूपः छन्दोऽभ्योऽद्यमृतात् सम्बभूव स
त्वमेन्द्र मेधया स्पृणोतु अमृतस्य देवधारणो भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरिविश्रुवम् ब्रह्मण कोशोऽसि मेधया पिहितः श्रुतम् मे गोपाया आवहन्ति वितन्वाना कुर्वाराचिरमात्मनः वाता पुंसि ममगावश्च अन्नपाने च सर्वदा ततो मे श्रियभावः लोमशाम् पशुभिः सह स्वाहा आपायन्तु ब्रह्मचारिणः स्वाहा विपायन्तु ब्रह्मचारिणः स्वाहा प्रमायन्तु ब्रह्मचारिणः स्वाहा दमायन्तु ब्रह्मचारिणः स्वाहा शमायन्तु ब्रह्मचारिणः स्वाहा यशोजने सानि स्वाहा शेयान्वस्य शोसानि स्वाहा तं त्वा भगप्रविशानि स्वाहा समाभगप्रविश स्वाहा तस्मिन् सहस्रशाखे निभगाहं त्वयि मृजे स्वाहा यथा पप्रवसायन्ति यथा वासाहर्जरम् एवम् माम् ब्रह्मचारिणः धातरायन्तु सर्वतः स्वाहा प्रतिवेशोऽसि प्रमाभाहि प्रमापद्य स्वा भूर्भुवस्सु वरिदिवा एतास्तिस्रोव्या हृदयः तासामुहस्मैतान् चतुर्थी माहाचमस्य प्रवेदयते मह इति तद्ब्रह्मा स आत्मा अङ्गान्यन्या देवताः भूरिति वा अयम् लोकः भुव इत्यन्तरिक्षम् सुवरित्यसौ लोकः मह इत्यादित्यः आदित्येन वाव सर्वे लोका महीयन्ते भूरिति वा अग्निः भुव इति वायुः सुवरित्यादित्यः मह इति चन्द्रमाः चन्द्रवसा वाव सर्वाणि ज्योतिपुं शिवहीयन्ते भूरिति वा रुचः भुव इति सामानि सुवरिति यजोगुंषि मह इति ब्रह्मा ब्रह्मणा वाव सर्वे वेदा महीयन्ते भूरिति वै प्राणः भुव इत्यपानः सुवरिति ज्ञानः मह इत्यन्नम् अन्नेन वाव सर्वे प्राणा महीयन्ते ताव एताश्चतस्रश्चतुर्धा चतस्रश्चतस्रो व्याहृदयः तायो वेद स वेद ब्रह्मा सर्वेऽस्मै देवा बलिवा वहन्ति स य एषोऽन्तर्हृदय आकाशः तस्मिन्नयम् पुरुषो मनोमयः अमृतो हिरण्मयः अन्तरेण तालुके य एष स्तन इव वलम्बदे सेन्द्रयोनिः यत्र शोके शान्तो विवर्तते व्यपोर्यशीर्षकपाले भूरित्यज्ञौ प्रतिष्ठति भुव इति वायौ सुभरित्यादित्ये मह इति ब्रह्मणि आप्नोति स्वराज्यम् आप्नोति वनस्पतिम् वाक्पतिश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञानपतिः एतत्तवो भवति आकाशशरीरम् ब्रह्मा सत्यात्मप्राणारामम् वन आनन्दम् शान्तिसमृद्धममृतम् इति प्राचीनयोग्योपास्वा हृथिव्यन्तरिक्षम् ज्योतिषोऽवान्तरदिशाः अग्निर्वायुरादित्यश्चन्द्रमानक्षत्राणि आप ओषधयो वनस्पतय आकाश आत्मा इत्यधिभूतम् अधाध्यात्मम् प्राणो ज्ञानोपान उदानः समानः चक्षुश्रोत्रम् मनोवाक्त्वक चर्म भागुम् सर्गस्नावास्थिमज्जा एतदधिविधाय ऋषिरवोचत पाङ्गम् वा इदगुम् सर्वम् पाङ्गे नैव पाङ्गस्पृणोदीति ओमिति ब्रह्मा ओमिति इदगुम् सर्वम् ओमित्येतदनुकृतिः स्म वा अप्योश्रावयेत्याश्रावयन्ति ओमिति सामानि गायन्ति ओगुंशोमिति शस्त्राणि शगुंसन्ति ओमित्यद्वर्युः प्रतिकरम् प्रतिगुणादि ओमिति ब्रह्मा प्रसौति ओमित्यग्निहोत्रमनुजानाति ओमिति ब्राह्मण प्रवक्षन्नाः ब्रह्मोपाप्नवानीति ब्रह्मैवोपाप्नोति ऋतञ्च स्वाध्याय प्रवचने च सत्यम् च स्वाध्याय प्रवचने च तपश्च स्वाध्याय प्रवचने च दमश्च स्वाध्याय प्रवचने च समश्च स्वाध्याय प्रवचने च अग्नयश्च स्वाध्याय प्रवचने च अग्निहोत्रम् च स्वाध्याय प्रवचने च अतिथयश्च स्वाध्याय प्रवचने च मानुषम् च स्वाध्याय प्रवचने च प्रजा च स्वाध्याय प्रवचने च प्रजनश्च स्वाध्याय प्रवचने च प्रजातिश्च स्वाध्याय प्रवचने च सत्यमिति सत्यवचारादीयरः तप इति तपो नित्यपौरुषिः स्वाध्याय प्रवचने एवेति नापोमौद्गल्यः तद्विदवस्तद्विदवः अहम् वृक्षस्य रेरिव कीर्तिपृष्टम् गिरेरिव ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि द्रविणपुंसवर्चसम् सुमेधा अमृतोक्षितः इति त्रिशङ्कोर्वेदानुवचनम् वेदमनोच्चार्योऽन्ते वासिनमनुशास्ति सत्यम् वद धर्मम् चर स्वाध्यायान्म मा प्रमदः आचार्याय प्रियं धनमाहृत्यं प्रजातन्तुं मा व्यवच्छेत्सि सत्यान्नः प्रमदितव्यम् धर्मान्नः प्रमदितव्यम् कुशलान्नः प्रमदितव्यम् भूत्यैनः प्रमदितव्यम् स्वाध्याय प्रवचनाभ्यान्नः प्रमदितव्यम् देवपितृकार्याभ्यान्नः प्रमदितव्यम् मातृदेवो भव पितृदेवो भव आचार्यदेवो भव अतिथिदेवो भव यान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतरानि यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि नो इतरानि एके चास्मच्छ्रेयांसो ब्राह्मणा तेषां त्वयासनेन प्रस्वसितव्यम् श्रद्धया देयम् अश्रद्धया देयम् श्रिया देयम् प्रिया देयम् भिया देयम् संविदा देयम् अथ यदि ते कर्म विचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ये तत्र ब्राह्मणा संवर्षिणः युक्ता आयुक्ताः अलोक्षा धर्मकामा स्युः यथा ते तत्र वर्तेरन् तथा तत्र वर्तेत अथाभ्याख्यातेषु ये तत्र ब्राह्मणा सम्मर्षिणः युक्ता आयुक्ताः अलोक्षा धर्मकामा स्युः यथा ते तेषु वर्तेरन् तथा तेषु वर्गेताः एष आदेशः एष उपदेशः एषा वेदोपनिषद् एतदनुशासनम् एवमुपासितव्यम् एवमुचैतदुपास्यम् शन्नो मित्रश्रं वरुणः शन्नो भवत्वर्यमा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि त्वामेव प्रत्यक्षं ब्रह्मावादिशम् ऋतमवादिशम् सत्यमवादिशम् तन्मामावीर् तद्वक्तारमावीर् आवीर्वक्तारम्
प्रजयादनेन त्यागेनैके अमृतत्वमानशुः परेण नाकं निहितं गुहायां विभ्राजते तद्यतयो दिशन्ति वेदान्तविज्ञानसुनिश्चितार्ता सन्न्यासयोगाद्यतयः शुद्धसत्त्वाः ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे दह्रं विपापं परमेश्वभूतं यत् पुण्डरीकं पुरमव्यसग्रस्तम् तत्राविरह्रं गगनं विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम्
யோ வேதாதௌ ஸ்வர ப்ரோக்தோ வேதாந்தே ச ப்ரதிஷ்டிதஃ தஸ்ய ப்ரகிருதிலீனஸ்ய யஃ பரஸ்ய மகேஸ்வரஃ ஸ்வஸ்தி ப்ரஜாப்யஃ பரிபாலயந்தாம் ந்யாயேன மார்கேன மஹீ மஹீஷாஃ கோப்ராஹ்மணேப்யஃ சுபமஸ்து நித்யம் சமஸ்தலோகாஃ சுகினோ பவந்து சமஸ்தலோகாஃ சுகினோ பவந்து சமஸ்தலோகாஃ சுகினோ பவந்து ஓம் ஷாந்தி ஷாந்தி ஷாந்தி.